आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। अद्य नवदेहल्यां प्रधानमन्त्री नरेन्द्रानन्दजी महाराज्ञः शतवर्षपूर्त्युत्सवस्य उद्घाटनं विधास्यति। अत्रावसरे असौ जनसभां च सम्बोधयिष्यति। अयं कार्यक्रमः आचार्य विद्यानन्दजी महाराज्ञः शततम जन्मदिनम् आचरितुं वर्तते। सर्वकारः भगवान् महावीर अहिंसा भारती इति न्यासेन सह संयुक्त तत्वावधानेन आयोज्यमानस्य राष्ट्रिय श्रद्धांजलि कार्यक्रमस्य औपचारिकारम्भं करोति। आचार्य विद्यानन्दः एकः श्रद्धेयः जैन आध्यात्मिक नेता, सामाजिक कार्यकर्ता च आसीत्। अस्मिन् उत्सवे तस्य जीवनं ज्ञातुं, तस्य सन्देशं प्रसारयितुं च देशे सांस्कृतिक साहित्यिक शैक्षणिक आध्यात्मिक प्रयत्नाः भविष्यन्ति। राष्ट्रपतिः पदासीना द्रौपदी मुर्मुः अवोचत् यत् सूक्ष्म लघु मध्यम उद्यमाः भारतीय वैश्विक अर्थव्यवस्थायाः आधारो वर्तते। उद्यमशीलतायाः पोषणं, वृत्त्यवसरस्य सृजनं, सर्वसमावेशकविकासस्य प्रोत्साहनं च कृत्वा MSME इत्येते मूलस्तरे आर्थिकपरिवर्तनम् अनुवर्तयन्ति। ह्यः नवदेहल्याम् अन्ताराष्ट्रिय MSME दिवस कार्यक्रमं सम्बोधयन्ती राष्ट्रपतिः अवदत् यत् देशस्य प्रगतिषु MSME क्षेत्रं महत्वपूर्णां भूमिकां निर्वहति इति।
सूक्ष्म लघु और मध्यम उद्यम न केवल देश के सफल घरेलू उत्पाद में महत्वपूर्ण योगदान देते हैं, बल्कि वे जमीनी स्तर पर नवाचार को भी बढ़ावा देते हैं। ये उद्यम रोजगार सृजन के साथ साथ सामाजिक समावेश को भी सफल प्रदान करते हैं। एक अनुमान के अनुसार MSME क्षेत्र भारत के सफल घरेलू उत्पाद में लगभग 30%, विनिर्माण क्षेत्र में 36% और निर्यात में 45% का योगदान रहा है।
राष्ट्रपतिः मुर्मुः अवोचत् यत् MSME क्षेत्रं न केवलं देशस्य GDP वर्धयति, अपि तु नवान्वेषणम् अपि प्रवर्धयत्। ओडिशा राज्यस्य पुरी नगर्यां भगवतः जगन्नाथस्य विश्व प्रसिद्धः वार्षिकी रथयात्रा ह्यः आरब्धः। मन्यते यत् जून जुलाई मासयोः संजायमाणे प्रसिद्धे उत्सवे भगवान् जगन्नाथः, तस्य अग्रजः बलभद्रः, कनिष्ठा भगिनी च देव्याः सुभद्रायाः विग्रहस्थलेषु विग्रहरथेषु आरुह्य दर्शनं प्रददति। राष्ट्रपतिः सर्वेभ्यः जगन्नाथ यथ रथ यात्रायाः शुभकामनाः अयच्छत्।
जगत की नाथ जगन्नाथ का रथ यात्रा है। जगन्नाथ हम सबको सुख शांति दे, इसीलिए आप सबको बहुत बहुत शुभकामनाएं देती हूँ। और सब उसी ध्वनि से बोले कि जगन्नाथ के कर्ण तक ये आवाज पहुँचे, जय जगन्नाथ।
केन्द्रीय गृहमन्त्री अमित शाहः ह्यः गान्धीनगरे सूचना केन्द्रं ग्रन्थालय केन्द्रं च अगच्छत्। स्वस्य यात्रावधौ सः पुस्तकालयानां विकासस्य समीक्षाम् अकरोत्। एकस्मिन् जनसञ्चार पटले श्रीशाहः अवोचत् यत् केन्द्रम् अत्याधुनिक तन्त्रज्ञानेन सह एकीकृतं कृत्वा पुस्तकालयानां निरन्तरं वर्धनं कुर्वत् अस्ति। श्रीशाहः सस्तु साहित्य वर्धक कार्यालय मोबाइल ऐप इत्यस्यापि उद्घाटनं विहितवान्, यत् पुस्तक प्रेमिणां कृते अत्यन्तं लाभप्रदं भविष्यति इति अपेक्ष्यते। चेन्नई नगरे प्रथम हॉकी इंडिया मास्टर्स कप क्रीडायां महिला वर्गे चरम स्पर्धायां ओडिशा राज्येन पंजाब राज्यं पराजितम्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः श्वः मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति इति वार्ताः।